हिरण्याक्षे पोत्रिप्रवरबपुषा देव भवता हते शोकक्रोधग्लपितधृतिः एतस्य सहजः हिरण्यप्रारम्भः कशिपुः अमरारातिसदसि प्रतिज्ञाम् आतेने तव किल वधार्थं मधुरिपो विधातारं घोरं सखलु तपसि त्वा न चिरतः पुरःसाक्षात्कुर्वन् सुरनरमृगाद्यैः अनिधनं वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदं परिक्षुन्दन् इन्द्रात् अहरत दिवं त्वाम् अगणयन् निहन्तुं त्वां भूयः तव पदम् अवाप्तस्य चरिपोः बहिर्दृष्टेः अन्तर्दधिथ हृदये सूक्ष्मवपुषा नदन् उच्चैः तत्रापि अखिलभुवनान्ते च मृगयन् भियायातं मत्वा स खलु जितकाशी निववृते ततोऽस्य प्रह्लादः समजनिसुतो गर्भवसतौ मुनेः वीणापाणेः अधिगत भवद्भक्तिमहिमा स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं गतः त्वद्भक्तानां वरद परमोदाहरणतां सुरारीणां हास्यं तव चरणदास्यं निजसुते सदृष्ट्वा दुष्टात्मा गुरुभिः अशिशिक्षत् चिरममुं गुरुप्रोक्तं चासौ इदमिदम् अभद्राय दृढमिति अपाकुर्वन् सर्वं तव चरणभक्त्यैव ववृधे अधीतेषु श्रेष्ठं किमिति परिपृष्टे थतनये भवद्भक्तिं वर्याम् अभिगदति पर्याकुलधृतिः गुरुभ्यो रोषित्वा सहजमतिरस्येति अभिविदन् वधोपायान् अस्मिन् व्यतनुत भवत्पादशरणे सशूलैराविद्धः सुबहुमथितो दिग्गजगणैः महासर्पैर्दष्टोऽपि अनशनगराहारविधुतः गिरीन्द्रावक्षिप्तोऽपि अहः परमात्मन् अयि विभो त्वयि ज्ञस्तात्मत्वात् किमपि न निपीडाम् अभजत ततः शङ्काविष्टः स पुनः अतिदुष्टोऽस्य जनकः गुरुक्त्या तद्गेहे किल वरुणपाशैः तम् अरुणत् गुरोश्च असान्निध्ये स पुनः अनुगान् दैत्यतनयान् भवद्भक्तेस्तत्त्वं परममपि विज्ञानम् अशिषत् पिता शृण्वन् बालप्रकरमखिलं त्वत्स्तुतिपरं रुषान्धः प्राहैनं कुलहतक कस्ते बलमिति बलं मे वैकुण्ठः तव च जगतां चापि सबलं स वै त्रैलोक्यं सकलम् इति धीरोऽयम् अगदीत् अरे क्वासौ क्वासौ सकलजगदात्मा हरिरिति प्रभिन्ते स्म स्तम्भं चलितकरवाळो दितिसुतः अतः पश्चात् विष्णो न हि वदितुम् ईशोऽस्मि सहसा कृपात्मन् विश्वात्मन् पवनपुरवासिन् मृडय मां कृपात्मन् विश्वात्मन् पवनपुरवासिन् मृडय माम् ॐ तत्सदिति श्रीमन्नारायणीये चतुर्विंशं दशकं समाप्तं श्रीहरये नमः रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।